निकाव्या वेधसश्यश्वतस्करहस्ते दधा नो नर्या पुरोणि अग्निर्भुवत्रजिपतेरजेडाम् सत्रा चक्राणो अमृता निविश्वा अस्मे वत्सम् परिषन्तन्न विन्दन्निच्छन्तो विश्वे अमृता अमोराः श्रमयुवः पदव्याधिजन्धास्तस्थः पदे परमे चार्भग्नेः तिस्रोजदग्ने शरदस्त्वामिच्छचिम् घृते दशुजः स परिजान् नामानि चिद्दधिरे जज्ञजान्यसोदयन्त तन्वा असुजाताः आरोदसे बृहते वेविदानाः प्ररुद्रजा जभ्रिरे जज्ञजा सः विदन्मर्ता नेमधिता चिकित्वा नग्निम् पदे परमेतस्थिवांसम् सञ्जानाना उपसीदन्नभिज्ञपत्ने एवन्ता नमस्यन् नमस्यन् ऋक्वांसस्तन्वः कृण्वतस्वाः सखा सख्यर्निमिषि रक्षमाणाः त्रिः सप्त यद्गुह्या नित्वे इत्पदा विदन्निहिता जज्ञजा सः तेभिः रक्षन्ते अमृतम् सजोषाः पशोञ्च स्थातृम् च रथम् च पाहि विद्वाँ अग्ने भजुना निक्षितेनाम् व्यानुषक्षुरुधो जीवसे धाः अन्तर्विद्वाँ अध्वनो देवजानानतन्द्रो दूतो अभवोह विर्वाट् स्वाध्यो दिव आसप्त जह्वे राजो दुरोवृतज्ञा अजानन् विदद्गव्यम् सरमा दृढभोर्वये नानुकम् मानुषे भोजते विट आये विश्वा स्वपत्यारितस्थः कृण्वानासो अमृतत्वाजगातम् मह्ना महद्भ्यः पृथिवे वितस्थे माता पुत्रैरदितिर्धाय सेवेः अधिश्रियन्निदधुश्चारुमस्मिन् दिवोज दक्षी अमृता अगृण्वन् अधक्षरन्ति सिन्धवो न सृष्टाः प्रणीचेरग्ने अरुषेरजानन्